आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झा। आदौ मुख्याः वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य नवदिल्ल्यां प्रायः 500 कोट्यधिक 33,000 रूप्यकाणां बहुविध विकासात्मक परियोजनानां उद्घाटनं शिलान्यासं च विहितवान्। अद्य अन्ताराष्ट्रिय महिला दिवसः आचर्यते। अवसरेऽस्मिन् राष्ट्रपतिः द्रौपदी मुर्मुः अवोचत् यत् यदा महिलाभ्यः अवसरं समर्थनं च दीयते तदा ताः प्रत्येकस्मिन् क्षेत्रे उत्कृष्टतां प्राप्तुं शक्नुवन्ति। नेपालदेशस्य संसदीय निर्वाचनेषु राष्ट्रिय स्वतन्त्र पार्टीति दलं पुरातनदलानि पराभूय प्रचण्ड बहुमतेन सह आगामि सर्वकारं निर्मातुं सज्जो वर्तते। अपि च क्रीडावार्तासु, आईसीसी पुरुषाणां T20 क्रिकेट विश्वकप क्रीडायाम् अद्य समिट क्लैश क्रीडायां भारतं न्यूजीलैण्ड देशेन सह स्पर्धिष्यते। अथ वार्ताः विशदीकृत्य। प्रधानमन्त्री नरेन्द्र मोदी अद्य नवदिल्ल्यां प्रायः 500 कोटितोप्यधिक 33,000 रूप्यकाणां बहुविध विकासात्मक परियोजनानां उद्घाटनं शिलान्यासं च विहितवान्। अवसरेऽस्मिन् श्रीमोदी अवोचत् यत् राष्ट्रिय राजधान्यां सुविधाः अवसंरचना च निरन्तरं सुदृढाः विस्तरिताः च क्रियन्ते।
जब भारत जैसे विशाल लोकतंत्र के बारे में सोचता है तो अक्सर उसके मन में दिल्ली की तस्वीर आती है। दिल्ली केवल भारत की राजधानी नहीं है, ये भारत की पहचान भी है, भारत की ऊर्जा का प्रतीक भी है। इसलिए दिल्ली का विकास केवल एक शहर का विकास नहीं होता, यह पूरे देश की छवि से जुड़ा होता है।
प्रधानमंत्री अवोचत् यत् भारतं महिला सशक्तीकरणे नूतनं अध्यायं रचयति, ताः च देशस्य विकासे महत्वपूर्णां भूमिकां निर्वहन्ति। सः अवोचत् यत् दिल्लीनगरस्य मुख्यमंत्री रेखा गुप्तायाः नेतृत्वे राष्ट्रिय राजधान्याः निरन्तरं विकासो भवति। भारतस्य महिलाशक्तिः राष्ट्रनिर्माणार्थं महत्वपूर्णं योगदानं ददातीति श्रीमोदी उक्तवान्।
आज भारत महिला सशक्तिकरण की नई गाथा लिख रहा है। यहाँ रेखा गुप्ता जी के सफल नेतृत्व में राजधानी का विकास हो रहा है। राजनीति, प्रशासन, विज्ञान, खेल या समाज सेवा का क्षेत्र, भारत की नारी शक्ति हर क्षेत्र में एक नई ऊर्जा से आगे बढ़ रही है।
अद्य उद्घाटितः नूतनः मेट्रो विभागः राजधान्याः निवासिनां कृते महत्वपूर्णं लाभं प्रदास्यति। प्रधानमन्त्री दिल्ली मेट्रो परियोजनायाः उद्घाटनं शिलान्यासं च कृतवान्, यस्य मूल्यं प्रायः 18,000,000,000 रूप्यकाणि वर्तते। सः दिल्ली मेट्रो इत्यस्य द्वयोः नूतनयोः मार्गयोः अपि उद्घाटनम् अकरोत्। एते मार्गाः राष्ट्रिय राजधान्याः अनेकेभ्यः महत्वपूर्णेभ्यः स्थानेभ्यः साक्षात् सम्पर्कं प्रदास्यन्ति, तथा च नोएडा दक्षिण दिल्ली विमानस्थानकयोः मध्ये यात्रां कुर्वतां निवासिनां कृते सम्पर्कं वर्धयन्ति। अवसरेऽस्मिन् आवास नगर कार्यमन्त्री मनोहर लालः अवदत् यत् मेट्रो रेल इतीदं दिल्लीनगरस्य जीवनरेखा वर्तते। राष्ट्रपतिः द्रौपदी मुर्मुः अवोचत् यत् यदा महिलाभ्यः अवसरं समर्थनं च दीयते तदा ताः प्रत्येकस्मिन् क्षेत्रे उत्कृष्टतां प्राप्तुं शक्नुवन्ति। अद्य नवदिल्ल्याम् अन्ताराष्ट्रिय महिला दिवसावसरे राष्ट्रियस्तरस्य उत्सवम् अभिसम्बोधयन्ती राष्ट्रपतिः अवदत् यत् महिलाः उद्यमशीलतायां वा कॉर्पोरेट जगति वा सर्वक्षेत्रेषु अग्रे सन्ति। राष्ट्रपतिः द्रौपदी मुर्मुः अवोचत् यत् भारतं महिलानां नेतृत्वे विकासं प्रति द्रुतगत्या अग्रे याति। कार्यक्षेत्रे महिलानां सहभागिता वर्धिता अस्ति। बेटी बचाओ बेटी पढ़ाओ, पीएम युवा योजना, मिशन शक्ति योजनाः महिलानां सशक्तीकरणं करोति। राष्ट्रपतिः अवोचत् यत् शिक्षायां महिलानां सहभागिता वर्धमाना अस्ति, अपि च देशे विद्यालयशिक्षायां लैङ्गिकसमता प्राप्ता वर्तते। सा अवोचत् यत् राष्ट्रस्य पुत्र्यः अपि क्रीडासु असाधारणरूपेण उत्तमं प्रदर्शनं कुर्वन्ति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। अद्य अन्ताराष्ट्रियमहिलादिवसः आचर्यते। उत्तरप्रदेशे मुख्यमन्त्री योगी आदित्यनाथवर्यः अवदत् यत् तस्य सर्वकारः सुरक्षायै, सम्मानाय, स्वावलम्बनार्थं च दृढतया प्रतिबद्धो वर्तते। सः अद्य लखनऊनगरे पिंक रोजगार महाकुम्भ 2020 कार्यक्रमे अपि भागम् अगृह्णात्। देशस्य विभिन्नेषु भागेषु अयं दिवसः आचर्यते। राष्ट्रपतिः द्रौपदी मुर्मू, उपराष्ट्रपतिः सीपी राधाकृष्णन्वर्यः, प्रधानमन्त्री नरेन्द्रमोदी च अस्मिन् अवसरे शुभाशयाः प्रेषितवन्तः। अस्य वर्षस्य विषयो वर्तते सर्वाभ्यः महिलाभ्यः बालिकाभ्यश्च अधिकारः, न्यायः, कार्यं च। अवसरेऽस्मिन् अशेषे हि देशे विभिन्न कार्यक्रमाणाम् आयोजनं प्रचलति। तत्रैव केन्द्रीय युव कार्यक्रम खेल मन्त्रालयः अद्य अन्ताराष्ट्रिय महिला दिवसावसरे नवदिल्ल्याम् अस्मिता इति राष्ट्रव्यापि एथलेटिक्स लीग इत्येतस्य आयोजनं च करोति। युव प्रकरण क्रीडा मन्त्रालयेन श्वः नवदिल्ल्यां विकसित भारत युवा कनेक्ट कार्यक्रमस्य द्वितीयं चरणं प्रारभ्यते। एषः समारम्भः मेरा युवा भारत इत्यस्य माध्यमेन विकसित भारत 47-2000 संकल्पनायां यूनां सहभागितां सुदृढीकर्तुम् आयोज्यते। मन्त्रालयेन सूचितं यत् राष्ट्रिय राजधान्याः 35-अधिकेभ्यः महाविद्यालयेभ्यः 10,000 छात्राः अस्मिन् कार्यक्रमे भागं ग्रहीष्यन्ति। युव नागरिकान् भारतस्य विकास यात्रया सह योजयितुं तथा च उत्तरदायित्वपूर्ण राष्ट्रनिर्मातृत्वेन तेषां भूमिकां वर्धयितुं विविध संवादात्मक सत्राणि, विचार विमर्शाः, क्रियाकलापाः च आयोजयिष्यन्ते। मन्त्रालयानुसारं विकसित भारत यंग लीडर्स डायलॉग इत्यस्य प्रस्तोतारः, विकसित भारत युवा संसद इत्यस्य विजेतारः तथा च अन्ये यूथ आइकॉन श्रेण्याः युवानः छात्रैः सह वार्तालापं करिष्यन्ति। राष्ट्रनिर्माणे च स्व अनुभवान् संविभज्य तान् प्रेरयिष्यन्ति च। एषः उपक्रमः पूर्वमेव 20 केन्द्रशासित प्रदेशेषु च 74-200 विश्वविद्यालयेषु, महाविद्यालयेषु च सम्प्राप्तः, येन सम्प्रति प्रायः 20,000 युवानः संलग्नाः सन्ति। नेपालदेशस्य संसदीय निर्वाचनेषु राष्ट्रिय स्वतन्त्र पार्टी इति दलं पुरातन दलानि पराभूय प्रचण्ड बहुमतेन सह आगामि सर्वकारं निर्मातुं सज्जो वर्तते। बालेन इति नाम्ना प्रसिद्धः 35-वर्षीयः प्रधानमन्त्रिपदस्य प्रत्याशी बालेन्द्रशाहः पूर्व प्रधानमन्त्रिणं केपी शर्मा ओली महोदयं प्रायः 50,000 मतानाम् अन्तरेण पराजितवान्। बालेन्द्रः अस्य हिमालयी देशस्य प्रथमः मधेसी इति प्रधानमन्त्री, देशस्य संसदीय इतिहासस्य च कनिष्ठतमः प्रधानमन्त्री भविष्यति। नेपालसंसदः 75-200 सदस्येषु 65-100 सदस्याः प्रत्यक्षमतदानेन, अवशिष्टाः 10-100 सदस्याश्च समानुपातिक प्रतिनिधित्वप्रणाल्या निर्वाच्यन्ते। आईसीसी पुरुषाणां T20 क्रिकेट विश्वकप क्रीडायाम् अद्य अहमदाबाद नगरस्य नरेन्द्रमोदी क्रीडाङ्गणे समिट क्लैश क्रीडायां भारतं न्यूजीलैंड देशेन सह स्पर्धिष्यते। अवधेयास्पदं वर्तते यत् सायंकाले 7 क्रीडा समारप्स्यते। इति वार्ताः।